एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रियसभायाः स्थानोपवेशेन अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं सर्वकारीय सेवा विधेयकं पारिति कृतमस्ति। उपवेशे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः संघीय विषय सामान्य प्रशासन मन्त्रिणा भगवती नेउपाने इत्यनया प्रतिनिधिसभातः ससन्देशं प्राप्तम् अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं संघीय सर्वकारीय सेवा विधेयकं पारिति क्रियताम् इति निगद्य प्रस्तुतः प्रस्तावः पारितोऽस्ति इति घोषणां विहितवान्। विधेयकमाधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन्ती संघीय विषय सामान्य प्रशासन मन्त्री भगवती नेउपाने संघीयतायाः मर्मणः अनुसारेण संघीय सर्वकारीय कर्मचारिणां व्यवस्थां विधातुं विधेयकस्यास्य आवश्यकता अस्ति इति प्रावोचत्। विधेयकमाधृत्य विहिते विमर्शने सांसदाः अनेन विधेयकेन संघीयताम् इतोऽपि सबलां विधातुं सहयोगो भविष्यति इति विश्वासं व्यक्तवन्तः। तत्पूर्वं ह्य उपविष्टे राष्ट्रियसभायाः प्रथमोपवेशे विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दाहालः अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं सर्वकारीय सेवा विधेयक सम्बद्धं विधायन व्यवस्थापन समितेः प्रतिवेदनं प्रस्तुतवती। एवमेव उपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलरामः अधिकारी प्रतिनिधिसभातः ससन्देशं प्राप्तं भूमि सम्बद्धान् काशिन् नेपालादि नियमान् संशोधयितुं निर्मितम् एतद् विक्रमवर्षीयं विधेयकमाधृत्य विचारेतामिति निगद्य प्रस्तावं प्रास्तौत्। तत्पूर्वम् उपवेशे सांसदः जाजरकोट प्रभृतीनां जनपदानां विभिन्नेषु क्षेत्रेषु जलप्लव भूस्खलन प्रभावितानां जनानां सहयोगस्य उद्धारस्य क्षतिपूर्तेश्च व्यवस्थां विधातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रसभायाः अपरोपवेशः भाद्रमासस्य त्रयोविंशे दिवसे दिवा सपादैकवादने वस्ता। चीनदेशस्य औपचारिके भ्रमणे विद्यमानस्य प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीनदेशस्य उपराष्ट्रपतेः हान चांग इत्यस्य च मध्ये मेलवार्ता सम्भूता अस्ति। वेजिंगवर्तिनी सर्वकारीयातिथिगृहे ह्य सम्भूतायां मेलवार्तायाम् अनयोर्मध्ये द्विपक्षीयस्य पारस्परिकहितस्य च विविधेष् विषयेष् विमृष्टमासीत्। मेलने चीनपक्षेण द्विपक्षीय कौटनीतिक सम्बन्धस्य विस्तारेण सहैव उभाभ्यां देशाभ्यां लाभप्रदा योजनाः अग्रेसारयितुं विमृष्टमासीत्। तदवसरे नेपालपक्षेण औपचारिक भ्रमणस्य उच्चस्तरीयायाः मेलवार्तायाश्च कृते चीन सर्वकाराय धन्यवादः व्यक्तः आसीत्। मेलनावसरे नेपालपक्षेण एक चीन नीतिं प्रति स्वकीयां स्पष्टतां दुरावृत्य चीनदेशस्य विरुद्धे नेपालस्य भूमेः प्रयोगो न भविष्यति इति प्रतिबद्धता व्यक्ता आसीत्। तदवधौ प्रधानमन्त्री ओली सांघाई सहयोग संघटनोपवेशः उपलब्धिपूर्ण सम्भूतोऽस्ति इति धारणां व्यक्तवान्। ह्य एव उपराष्ट्रपतिना हान इत्यनेन नेपाली प्रतिनिधिमण्डलस्य स्वागताय रात्रिभोजस्य आयोजना विहिता आसीत्। सांघाई सहयोग संघटन शिखर सम्मेलने भागं गृहीत्वा प्रधानमन्त्री ओली अद्य स्वदेशं प्रत्यागच्छन्नस्ति। प्रधानमन्त्री ओली अस्यैव भाद्रमासस्य चतुर्दशी दिवसे नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय चीनदेशं प्रति प्रस्थितः आसीत्। राज्य व्यवस्था सुशासन समितेः सदस्यैः नवनिर्वाचितायै सभापतये ईश्वरी देवी नेउपाने अभिधायै वर्धापन शुभकामना सन्देश प्रदान पुरस्सरं समितौ विचाराधीन विधेयकम् अग्रे वर्धयितुं परामृष्टं वर्तते। समितेः ह्य उपविष्टे उपवेशे समितेः सदस्यः विधेयकानां निर्माणस्य क्रमे विगतस्य त्रुटिभ्यः पाठं शिक्षित्वा अग्रे वर्धयितुं परामृशन्। उपवेशे सदस्यः विधेयकानां निर्माणाय गभीरेण अग्रे वर्धयितुम् अनुरुध्य जनप्रतिनिधिमूलक स्थलेन निर्मितस्य विधेयकस्य प्रमाणीकरणेन विना प्रत्यावर्तनस्य अवस्थायाः निवारणस्य वातावरणं स्रष्टुं बलं प्रादुः। उपवेशे सदस्यः समितौ विचाराधीनानि अधिकार दुरुपयोगानुसन्धान आयोगेन निर्माण सामग्री व्यवस्थापनेन प्रहरिणा च सम्बद्धानि विधेयकानि तत्कालम् अग्रे वर्धयितुं परामृष्टवन्तः। कार्यवाहकस्य प्रधानमन्त्रिणः नगरीय विकास मन्त्रिणश्च प्रकाशमान सिंहस्य विश्वकोशस्य दक्षिण एशियाई क्षेत्र सम्बद्धस्य उपाध्यक्षस्य जोहानिस जुट इत्यस्य च मध्ये मेलवार्ता सम्भूता अस्ति। नगरीय विकास मन्त्रालये ह्यः सम्भूते मेलने विश्वकोशस्य मन्त्रालयस्य च मध्ये नवीनासु परियोजनासु सहकार्यस्य विषये विमृष्टमासीत्। अनयोर्मध्ये बृहत्तर लुम्बिनी विकास कोषायोजनायाः काष्ठमण्डपे नगरीय विकास भौतिक पूर्वाधार निर्माणस्य अवकर व्यवस्थापनस्य नदीनाम स्वच्छतायाश्च विषयेष् विमृष्टमासीत्। ह्य एव च उपप्रधानार्थमन्त्रिणः विष्णुप्रसाद पौडेलस्य उपाध्यक्षस्य जुट इत्यस्य च मध्ये अर्थमन्त्रालये मेलवार्ता सम्भूता अस्ति। नेकपा एमाले दलस्य केन्द्रीय सचिवालयोपवेशः श्व एकोनविंशे दिवसे वस्ता। एमाले दलस्य द्वितीय विधान महाधिवेशने प्रस्तुष्यमाणस्य राजनीतिक प्रतिवेदनस्य विधान संशोधन प्रस्ताव प्रतिवेदनस्य सांगठनिक प्रतिवेदनस्य च विषये विमृष्टुमुपवेशः श्व अपराह्नस्य त्रिवादने वस्तेति एमाले दलस्य प्रचार विभाग प्रमुखः राजेन्द्र गौतमः असूचयत्। ह्यः सायं पुनः कर्णाली राजमार्गः अवरुद्धो वर्तते। कालीकोट जनपदस्य शुभकालिका ग्रामपालिकायाः प्रथमौडा क्षेत्रस्य गगने खोलास्थाने भूस्खलनानन्तरं कालीकोट मार्गखण्डः अवरुद्धोऽस्तीति कालीकोट जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। भूस्खलनेन सहैव ह्यः सायं षड्वादनात् मार्गोऽसौ पूर्णरूपेण अवरुद्धोऽस्ति। यातायात साधनानि मार्गे एव अवरुद्धानि वर्तन्ते चेति कालीकोट जनपदस्य प्रहरी नायब उपरीक्षक टेक बहादुर रावत असूचयत्। एवमेव भूस्खलनस्य पश्चात् बागलुङ जनपदस्य सालझण्डी ढोरपाटन मार्गखण्डः अवरुद्धोऽस्ति। संचार सूचना प्रविधि मन्त्रालयस्य सार्वजनिक सेवा प्रसारण नेपालस्य च मध्ये ह्य कार्य सम्पादन संविधा सम्भूता अस्ति। मन्त्रालये ह्य आयोजिते कार्यक्रमे मन्त्रालयस्य सचिव राधिका अर्यालः सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्षः डाक्टर महेन्द्र विष्टश्च सार्वजनिक सेवा प्रसारण नेपालेन वर्तमानार्थिक वर्षे विधातव्यै मुख्य कार्यै अधिगन्तव्योपलब्धिभिश्च सम्बद्धायां कार्य सम्पादन संविधायां हस्ताक्षरम् अकुरुताम् इति समाचारः।